एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सबल विकासस्य लक्ष्यस्य पूर्तये एकादशोत्तर शतद्वयस्य खर्वाणाम् पञ्चषष्टिः सहस्राणाञ्च रूप्यकाणाम् निवेशनस्य आवश्यकता अस्तीति राष्ट्रिय योजना आयोगेन ज्ञापितम् वर्तते। आयोगेन ह्य सबल विकासस्य लक्ष्यस्य आवश्यकता परिचयः व्ययानुमानः वित्तीय रणनीतिश्चेति नामकम् एतद् विक्रम वर्षीयम् प्रतिवेदनम् सार्वजनीकृत्य गत ख्रीष्टवर्षात् त्रिंशदुत्तर द्विसहस्रतम ख्रीष्टाब्दम् यावत् प्रतिवर्षम् त्रिंशतः खर्वाणाम् त्रयोविंशतिः अब्जानाञ्च रूप्यकाणाम् निवेशनम् अपेक्षते इति ज्ञापितमस्ति। सबल विकासस्य लक्ष्यस्य प्राप्तये गत ख्रीष्टवर्षात् त्रिंशदुत्तर द्विसहस्रतम ख्रीष्टवर्षम् यावत् समग्रगार्हस्थ्योत्पादनस्य 10.45% निवेशनस्य आवश्यकता भवतीति अनुमितम् वर्तते। सबल विकासस्य लक्ष्यस्य प्राप्तये निवेशनस्य आवश्यकताम् पूरयितुम् सार्वजनिकस्तरात् नैजस्तरात् सहकारीस्तरात् गृहपारिवारिकस्तरात् च वित्तीय स्रोतसः प्राप्तित्वेन रणनीतिः निर्मिता अस्तीति आयोगेन ज्ञापितम् अस्ति। सार्वजनिक क्षेत्रात् सबल विकास लक्ष्यस्य सम्पूर्ण व्ययस्य आवश्यकतातः 10.75% निवेशनस्य परिचालनम् अनुमितम् वर्तते। यस्मिन् संघीय सर्वकारस्य 70% प्रदेशस्य 9 स्थानीय सर्वकाराणाम् पक्षतः 21% निवेशनम् आवश्यकम् भविष्यति। कोशी प्रदेश सर्वकारेण एक खर्वतोपि अधिकस्य निवेशनस्य लक्ष्यं निर्धार्य असैव वैशाख मासस्य 18-21 च दिवसयोः विराटनगरे निवेश सम्मेलनम् आयोक्ष्यमाणम् वर्तते। सम्मेलनस्य माध्यमेन प्रदेशे स्वदेशिकस्य नैजस्य प्रत्यक्ष वैदेशिकस्य च निवेशनस्य आकर्षणेन सह नवीनतम प्रविधेः ज्ञानस्य शिल्पस्य च परिचालनाय आधारः निर्मास्यते इति अपेक्षितम् वर्तते। प्रधानमन्त्री केपी शर्मा ओली निगदति संस्कृति महत्वपूर्ण विषयो भवतीत्यतः इतिहासस्य संरक्षणं प्रवर्धनञ्च सर्वैः कर्तव्यम्। बाल्वाचारवर्तिनी प्रधानमन्त्री निवासे ह्य राष्ट्रिय समाचार समित्या प्रकाशितस्य गणतन्त्रस्य 16 वर्षाणि इति नाम्नः पुस्तकस्य ग्रहणस्य क्रमे प्रधानमन्त्री ओली मनुष्य हि ज्ञानस्य अनुसन्धानस्य मनोरञ्जनस्य च क्रमे संस्कृति अवलम्ब्यमाना स्थिति अगदत्। पुस्तके देशस्य सर्वासां जातीनां भाषाणां भूगोलस्य धर्मसंस्कृत्योः पूर्वाधार निर्माणस्य च क्षेत्रेषु जायमानान् गतिविधीन् समाविश्य 90 चित्रपत्रकारैः गृहीतानि 280 चित्राणि समाविष्टानि वर्तन्ते। ह्य एव प्रधानमन्त्री ओली विश्वस्य 23 देशेभ्यः समागतैः नेपालीभाषी कलाकारेषु प्रसिद्धैः कलाकारैः सह मिलित्वा तेषां प्रतिभां प्राशंसत्। तदवसरे प्रधानमन्त्री ओली विश्वेस्मिन् विश्वे यत्र कुत्रापि स्थित्वापि नेपालीभिः नेपाली कला संस्कृत्योः संरक्षणं विधीयमानमस्तीति उक्त्वा हर्षं प्राकटयत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दहाल प्रचण्डः निगदति पूर्वराष्ट्रपतिभ्यः उपराष्ट्रपतिभ्यश्च राजनीतौ प्रत्यावर्तितुं निषेध केनापि विधिना कृतो नास्ति। विराटनगर विमानस्थले ह्य सञ्चारकर्मिभिः सह भाषमाणः अध्यक्षः प्रचण्डः पूर्वराष्ट्रपतिभ्यः उपराष्ट्रपतिभ्यश्च राजनीतौ पुनः प्रत्यावर्तितुं सांविधानिक विधिना अन्ताराष्ट्रिय परम्परया च अवरोधो विहितो नास्ति इति उदैरयत्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी कथयति चौरङ्गी गवां पालनेन हिमालयीय समुदायस्य आर्जनेन प्राङ्गारिक कृष्यां वातावरणीय सन्तुलने च महत्वपूर्णं योगदानं प्राप्यमाणं वर्तते। प्रथम चौरङ्गी गोदिवसस्य अवसरे मन्त्रालयेन ह्य आयोजिते कार्यक्रमे मन्त्री अधिकारी भौगोलिक समाहयानां स्थानान्तरणस्य गोचारणक्षेत्रस्य अभावस्य प्रजनन सम्बद्ध समस्यायाः वनपशूनाम् आक्रमणस्य जलवायु परिवर्तनस्य च कारणैः नेपाले चौरंगी गवाम संख्या प्रतिदिनं न्यूनायमाना अस्तीति हेतुः चौरंगी गवाम पालनाय संघचित प्रयासः आवश्यकता अस्तीति प्रत्यपादयत्। मन्त्रालयस्य अग्रेसरतायां सर्वकारेण चौरंगी गवाम महत्त्वम् आत्मसात्कृत्य प्रत्येकं वर्षस्य वैशाख मासस्य सप्तमं दिवसं चौरंगी गोदिवसत्वेन समायोजयितुं विहितस्य निर्णयस्य अनुसारेण चौरंगी गवां प्रवर्धनं हिमालयीय जीवनं संस्कृतेः पर्यावरणस्य च संरक्षणम् इति मूल समाघोषेण ह्यः प्रथमवारं चौरंगी गोदिवसः समायोजितोऽस्ति, यत्र च चौरंगी गोपालकाः कृषकाश्च सम्मानिताः आसन्। वन वातावरण मन्त्री ऐनबहादुर शाही ठकुरी कथयति, प्लास्टिक नाम्ना लचकज पदार्थ जेन अवकरेण प्रकृत्या सह मानवानां स्वास्थ्य सम्पूर्ण वातावरणे च गभीरः प्रभावः सृज्यमानो वर्तते। मन्त्री शाही एवं विधस्य अवकरस्य वैज्ञानिकरूपेण स्थायीरूपेण च व्यवस्थापनम् अवर्तमानः प्रमुख समाहोऽस्ति इति उक्तवान् वर्तते। यः काष्ठमण्डपे आयोजिते लचकज पदार्थ जावकरस्य व्यवस्थापन सम्बद्ध सम्मेलनस्य उद्घाटनं विदधानः मन्त्री शाही प्लास्टिक नाम्नो लचकज पदार्थस्य प्रदूषणस्य प्रभावस्य निराकरणं तेन सृष्ट्यमानायाः समस्यायाः निराकरणं च सर्वकारस्य एकाकिनां प्रयासेन न सम्भवति इति उदैरयत्। मन्त्री शाही एतदर्थं शिक्षण संस्थासु अनुसन्धान केन्द्रेषु उद्योग व्यवसायिषु स्थानीय सर्वकारेषु सामान्य नागरिकेषु च सहकार्यस्य समन्वयस्य च आवश्यकतां प्रादर्शयत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन उपसभापतये दलस्य केन्द्रीय नीत्यनुसन्धान प्रशिक्षण प्रतिष्ठानस्य प्रमुखाय च पूर्णबहादुर खड्का इत्यस्मै कार्यवाहक सभापतेः दायित्वं निर्धारितम् अवर्तते। सभापतिना देउवाभिधेन आत्मना देशाद् बहिः प्रस्थितेः कारणेन दलस्य विधानस्य अनुसारेण स्वदेशम् अप्रत्यावर्तनं यावत् खड्का इत्यस्मै दलस्य कार्यवाहक सभापतेः दायित्वं निर्धारितम् अस्ति इति दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। परराष्ट्र मन्त्री डॉ आरजु राणा देउवा ह्यः थाईलैंड देशस्य बैंकक नगरं प्रस्थिता वर्तते। अस्यैव अप्रैल मासस्य एकविंशात् दिवसात् पञ्चविंशं दिवसं यावत् बैंकक नगरे आयोज्यमाने यूएनस्केप आयोगस्य 81वें सत्रे सहभागितायै परराष्ट्र मन्त्री राणा तत्र प्रस्थिता अस्ति इति ज्ञापितं वर्तते। सम्प्रति यूएनस्केप आयोगस्य अध्यक्ष नेपालोस्ति, ततः मन्त्रिणा राणा विधया आयोगस्य 81वें सत्रे आध्यक्ष्यं निर्वक्ष्यते। निषेधित क्षेत्रे प्रदर्शनं विहितम् इत्यारोपे निगृहीतः राष्ट्रीय प्रजातन्त्र दलस्य अध्यक्षेण सहितः सप्त नेतारः प्रहरिणा तिक्ता सन्ति। सिंहप्रासादे नया वानेश्वर स्थाने च निषेधित क्षेत्रेषु प्रदर्शनं विहितमिति आरोपे प्रहरिणा इमे नेतारः निगृहीता आसन्। निगृहीतेषु जनेषु अध्यक्षः राजेन्द्र लिङ्गदेनः, उपाध्यक्ष बुद्धिमान तामाङ, सांसद ज्ञानबहादुर शाही, राप्रपा दलस्य युव समितेः अध्यक्ष कैलाश कचुवाल प्रभृतयः आसन्। राष्ट्रपतिना रामचन्द्र पौडेलेन पाकिस्तान देशस्य कृते नेपालस्य आवासीय राजदूतः रीताधितालः गणतन्त्र टर्की देशस्य कृते नेपालस्य आवासीय तर राजदूत पदे नियुक्ता वर्तते इति समाचारः।